श्रीमद्भागवत महापुराणम् चतुर्थस्कन्धः अथ चतुर्विंशोऽध्यायः। मैत्रेय उवाच, विजिताश्वो धीराजासीत् पृथुपुत्रः पृथुश्रवाः, यवीयोऽभ्यो ददात् काष्ठाः भ्रातृभ्यो भ्रातृवत्सलः, हर्यक्षायादिशत्राचीं भूमृगेशाय दक्षिणां, प्रतीचीं मृकसैन्याय तुर्यान् द्रविणसे विभुः, अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धान अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम्। पावकः पवमानश्च शुचिरित्यग्नयः पुरा, वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः, अन्तर्धानो न भस्वत्यां हविर्धानमविन्दत। य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान्, राज्ञां वृत्तिं करादान दण्डशुल्का मन्यमानो दीर्घसत्रव्याजेन विससर्जः, तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् यजंस्तल्लोकतामाप कुशलेन समाधिना, हविर्धानाधविर्धानी विदुरासूतषट्सुतान्, बर्हिषदङ्गयं शुक्लं कृष्णं सत्यैजितव्रतम्, बर्हिषत्सु महाभागो हाविर्धानि प्रजापतिः, क्रियाकाण्डेषु निष्णातो योगेषु च कुरुद्वः, यस्येदं देवयजन मनुयज्ञं वितन्वतः, प्राचीनाग्रैः कुशैरासीदाश्रुतं वसुधातलम्, सामुद्रीं देवदेवोक्तामुपयेमेष तद्धृतिं, यां वीक्ष्य चारु सर्वाङ्गी किशोरीं सुष्वलङ्कृतां, परिक्रमन्तीमुद्वाहे चकमेग्निःशुकीमिव, विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः, विजिता सूर्ययादिक्षुक्वणयन्त्यैव नूपुरैः, प्राचीनबर्णिषः पुत्रा शतद्रुत्यां दशाभवन्, तुल्यनामव्रता सर्वे धर्मस्नाता चेतसः पित्रादिष्टा प्रजा सर्गे तपसेर्णवमाविशन् दशवर्षसहस्राणि तपसार्चौस्तपस्पतिम् यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः विदुर उवाच प्रचेतसाङ्गिरित्रेण यथासीत पथि संगमः यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत् संगमः खलु विप्रर्षे शिवेनेह शरीरिणाम् दुर्लभो मुनयो दध्यु रसंगाद्यमभीप्सितम् आत्मा रामोऽपि यस्त्वस्य लोककल्पस्य राधसे शक्त्या युक्तो विचरति घोरया भगवान् भवः मैत्रेय उवाच प्रचेतसः पितुर्वाक्यं शिरसादाय साधवः दिशं प्रतीचीं प्रययुस्तपस्या धृतचेतसः समुद्रमुपविस्तीर्णमपश्यन् सुमहत्सरः महन्मन इव स्वच्छं प्रसन्न सलिलाशयं नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् हंससारसचक्राह्व कारण्डवनिकूजितम् मत्तभ्रमरसौ स्वर्य रुष्टरोमलताङ्घ्रिपम् पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् विसिस्म्यूराजपुत्रास्ते मृदङ्गपणवाद्यनु तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् उपगीयमानममरप्रवरं विबुधानुगैः तप्तहेमनिकायाभं क्षितिकण्ठं त्रिलोचनम् प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः सतान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाचः श्रीरुद्र उवाच यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् अनुग्रहाय भद्रं एवं मे दर्शनं कृतम् यः परं ब्रह्मसाक्षात् त्रिगुणा जीवसंहितात् भगवन्तं वासुदेवं प्रपन्नः सप्रियो हि मे स्वधर्मनिष्ठशतजन्मभिः पुमान् विरीचतामीति ततः परं हि माम् अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधात् कलात्यये अथ भागवतायूयं प्रियास्थ भगवान् यथा नमद्भागवतानाय च प्रियानन्योऽस्ति कर्णिचित् इदं विविक्तै जप्तव्यं पवित्रं मङ्गलं परम् निःश्रेयसकरै चापि श्रूयतां तद्वदामि वः मैत्रेय उवाच इत्यनुक्रोश हृदयो भगवानाहतान् शिवः बद्धाय जलीन् राजपुत्रान् नारायणपरो वचः श्रीरुद्र उवाच जितन्त आत्मविद्धुर्यस्वस्तये स्वस्तिरस्तु मे भवताराधसाराधं सर्वस्मा आत्मने नमः नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने नमो नमो निरुद्धाय ऋषिकेशेन्द्रियात्मने नमः परमहंसाय पूर्णाय निवृतात्मने स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे नम ऊर्ज इषे त्रय्या पतये यज्ञरेतसे तृप्तिदाय च जीवानां नमः सर्वरसात्मने सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे नमस्त्रैलोक्यपालाय सह ओजो बलाय च अर्थलिंगाय नभसे नमोऽन्तर्बहिरात्मने नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे नमो धर्मविपाकाय मृत्यवे दुःखदाय च नमस्त आशिषामीश मनवे कारणात्मने नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे पुरुषाय पुराणाय सांख्ययोग शक्तित्रय समेताय मीढुषे हंकृतात्मने चेत आकूति रूपाय नमो वाचो विभूतये दर्शनन्नो दिदृक्षूणां देहि भागवतार्चितं रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणै जनं स्निग्धप्रादृद्घनश्यामं सर्वसौन्दर्यसंग्रहम् चार्वायत चतुर्बाहुं सुजातरुचिराननं पद्मकोशपलाशाक्षं सुन्दरभ्रुसुनासिकं सुद्विजं सुकपोलास्यं समकर्णविभूषणम् प्रीतिप्रहसितापाङ्गमलकैरुपशोभितं लसत्पङ्कजकैजल्कदुकूलं मृष्टकुण्डलं स्फुरत्किरीटवलयहारनूपुरमेखलं शङ्खचक्रगदा पद्म मालामण्युत्तमर्धिमत् स्यूहस्कन्धत्विषो बिभ्रत् सौभगग्रीवकौस्तुभम् श्रियानपायिन्याक्षिप्त निकषाश्मोरसोल्लसत् पूररेचकसंविघ्नवलिवल्गुदलोदरम् प्रतिसङ्क्रामयद्विश्वन्नाभ्यावर्तगभीरया श्यामश्रोण्यधिरोचिष्णुर्दुकूलस्वर्णमेखलम् समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् पदाशरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरहं विधुन्वता प्रदर्शय श्रीयमपास्तसाध्वसम् पदङ्गुरो मार्गगुरुस्तमोजुषाम् एतद्रूपमनुध्येय मात्मशुद्धिमभीप्सताम् यद्भक्तियोगो भयदस्वधर्ममनुतिष्ठताम् भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनां स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः तन्दुराराध्यमाराध्य सतामपि दुरापया एकान्तभक्त्या को पादमूलं विना बहिः यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जित ब्रुवा क्षणार्धीनापि तुलये न स्वर्गन्ना पुनर्भवम् भगवत्सङ्गिसङ्गस्य मर्त्यानाङ्गिमुताशिषः अथानघाङ्घ्रीस्तव कीर्तितीर्थयो रन्तर्बहिस्नानविधूतपाप्मनाम् भूतेष्वनुक्रोशसुसत्त्वशीलिनाम् स्यात्सङ्गमोऽनुग्रहैष नस्तव न यस्य चित्तं बहिरर्थविभ्रमन्तमो गुहायै च विशुद्धमाविशत् यद्भक्तियोगानुगृहीतमैजसा मुनिर्विचष्टे ननु तत्र ते गतिम् यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् तत्त्वं ब्रह्म परैज्योतिराकाशमिव विस्तृतं यो माययेदं पुरुरूपया सृजत् बिभर्ति भूयः क्षपयत्यविक्रियः यद्भेदबुद्धिः सदिवात्मदुस्थया तमात्मतन्त्रं भगवन् प्रतीमहि क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये भूतेन्द्रियान्तःकरणो लक्षितं वेदे च तन्त्रे च तैव कोविदाः त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजसत्त्वतमो विभिद्यते महानहङ्कं मरुदग्निवार्धरा सुरर्षयो इदं यतः सृष्टं स्वशक्तिदमनुप्रविष्टश् चतुर्विधं पुरमात्मांशकेन अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते ऋषिकैर्मधुसारघं यः स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवा विषह्यः प्रमुत्तमुच्चैरिति कृत्य चिन्तया प्रवृद्धलोभं विषयेषु लालसं त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्ले लिहानो हिरिवाकुमन्तकः कस्त्वत्पदाब्जं विजहाति पण्डितो यस्येवमानव्ययमानकेतनः विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् विश्वं रुद्रभयध्वस्त मकुतश्चिद्भयागतिः इदै जपत भद्रं वो विशुद्धा नृपनन्दनाः स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः तमेवात्मानमात्मस्थं सर्वभूतेष्वस्थितं पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् योगादेशमुपासाद्य धारयन्तो मुनिव्रताः समाहितधियः सर्व एतदभ्यसतादृताः इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः भ्रोग्वादीनामात्मजानां शिश्रुक्षुः सौ शिश्रुक्षताम् ते वयन्नोदिता सर्वे प्रजा सर्गे प्रजेश्वराः अनेन ध्वस्ततमसस्य सूक्ष्मो विविधा प्रजाः अथेदन्नित्यदायुक्तो जपन्नवहितः पुमान् अचिराच्छ्रेय आप्नोति वासुदेव परायणः श्रेयसामिह सर्वेषाय ज्ञानन्निःश्रेयसं परम् सुखन्तरति दुष्पारै ज्ञाननौर्व्यसनार्णवम् य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् अधीयानो दुराराध्यं हरिमाराधयत्यसौ विन्दते पुरुषो मुष्माद्यद्यदिच्छत्य सत्वरम् मद्गीतगीतात् सुप्रीतात् श्रेयसामेकवल्लभात् इदं यत् कल्युत्थाय प्राञ्जलि श्रद्धयान्वितः शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनस्तवम् जपन्तैकाग्रधियस्तपो महच्चरध्वमन्ते ततलाप्स्यथेप्सितम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॐ श्री